एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सर्वकारेण जेएनजीयूनाम् हुतात्म परिवार कल्याण कारिणे समाजाय अनुदान सहयोगम् प्रदापयितुम् निर्णीतमस्ति। ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन जेएनजीयूनाम् हुतात्म परिवारस्य कृते कल्याण कारिणम् कार्यक्रमम् सञ्चालयितुम् समाजाय अनुदान सहयोगम् प्रदातुम् निर्णीतमस्तीति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च जगदीश खरेलः असूचयत्। उपवेशेन नेपाल सर्वकारस्य इजरायल देशस्य सर्वकारस्य च मध्ये श्रम संविधान स्वीकर्तुम् निर्णीतमस्ति। उपवेशेन वन सम्बद्धा एतत् विक्रम वर्षीया तृतीय संशोधन नियमावली स्वीकृता अस्ति। मन्त्रिपरिषदः उपवेशेन समस्यायुक्तायाः सहकारी संस्थायाः सम्पद व्यवस्थापन दायित्व प्रदान सम्बद्धायाः व्यवस्थापन समितेः सदस्य पदे कुलप्रसाद न्यौपाने नियुक्तोस्तीति संचार मन्त्री खरेलः असूचयत्। प्रधानमन्त्री सुशीला कार्की सामाजिक सद्भावम् संस्थाप्य शान्तिपूर्ण रूपेण निर्वाचनम् सम्पादयितुम् सम्बद्धान् सर्वान् पक्षान् अनुरोधादि। बालवाटारवर्तिनी प्रधानमन्त्री निवासे पूर्व सांसद मञ्चस्य प्रतिनिधिभिः सह ह्यः सम्भूते मेलने प्रधानमन्त्री कार्की सम्प्रति देशस्य अवस्था अतीव संवेदनशीला वर्तते। निर्वाचनस्य राष्ट्रिय कार्यभार पूरणस्य दायित्वं सर्वकारस्य अस्तित्यतः समाजस्य सर्वान् पक्षान् संयमम् सहिष्णुताम् सद्भावम् च धर्तुम् अन्वरुणत्। प्रधानमन्त्री कार्की निर्वाचनस्य कृते सर्वाणि राजनीतिक दलानि सन्नद्धानि सन्ति, मतदात शिक्षाया प्रदानाय सर्वैः कार्यम् करणीयम् इति तदवसरे अवोचत्। मञ्चस्य प्रतिनिधिभिः जनैः देशस्य समस्यानाम् समाधानाय निर्वाचनमेव लोकतान्त्रिक विकल्पोऽस्तीत्यतः तत्र सर्वकारस्य सफलता अपेक्षते इत्युक्तम् आसीत्। पहर्सा जनपद प्रशासन कार्यालयेन ह्य सायं षड्वादनात् अद्य प्रात अष्टवादनम् यावत् वीरगंज नगरे पूर्णतः निषेधाज्ञा क्रियान्विता वर्तते। अत्यावश्यक कार्येण विना गृहात् बहिर्न निर्गन्तुम् आवश्यकतायाम् सत्याम् सुरक्षाकर्मिभिः सह समन्वयम् विधाय शताङ्केषु दूरभाषम् कृत्वा वा गृहात् बहिः आगन्तुम् जनपद प्रशासन कार्यालयेन अनुरुद्धम् वर्तते। वीरगंज नगरे परस्परं सद्भावस्य भञ्जनस्य प्रदर्शनानां प्रतिदिनं वर्धनस्य अनन्तरं प्रशासनेन ह्य दिवा एकवादनात् वीरगंज क्षेत्रे निषेधाज्ञायां क्रियान्वितायां सत्यमपि कतिपय स्थानेषु प्रदर्शनानि नावरुद्धानि जनेषु संघर्षश्च वर्धित इत्यतः ह्य सायंकालात् पूर्णतः निषेधाज्ञा क्रियान्विता वर्तते। अत्रान्तरे गृहमन्त्रिणा ओम प्रकाश अर्यालेन धनुषा पर्सा जनपदयोः धार्मिक सद्भावे सहिष्णुतायाम् च प्रभावसर्जकानाम् घटनानाम् सन्दर्भे गभीरम् ध्यानाकर्षणम् सम्भूतमस्तीति उक्तम् वर्तते। गृहप्रशासनस्य संघीय सर्वकारस्य च पक्षतः अवलम्बनीयाः सुरक्षायाः सर्वेऽपि उपायाः पूर्वकार्याणि च विहितानि सन्ति इति संसूचयन् गृहमन्त्री अर्यालः सर्वैः पक्षैः सह तत्कालम् सद्भावस्य सहास्तित्वस्य च रक्षणत्वेन समाजे हिंसाम् रोद्धुम् अनुरुद्धवान् वर्तते। गृहमन्त्रालये ह्य एव नागरिक समाजस्य अग्रणीभिः सह विहिते विमर्शने गृहमन्त्री अर्यालः सामाजिक सञ्जालस्य माध्यमेन प्रसार्यमाणान् धार्मिक विद्वेषम् भ्रामक समाचारान् च प्रति सावधानाः सन्तः समाजे सामाजिकीम् धार्मिकीम् च सहिष्णुताम् संस्थापयितुम् अन्वरुणत्। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् मान्याधिवक्तृ कार्यालयस्य गतार्थिक वर्षस्य वार्षिकम् प्रतिवेदनम् प्रस्तुतम् वर्तते। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते कार्यक्रमे राष्ट्रपतेः पौडेलस्य समक्षम् महान्यायाधिवक्ता सविता भण्डारी वार्षिक प्रतिवेदनमेतद् प्रस्तुतवती अस्ति। प्रतिनिधिसभाया सदस्यानाम् आगामिनः निर्वाचनस्य कृते निर्वाचनायोगेन 37 जनपद न्यायाधीशाः मुख्य निर्वाचनाधिकृताः निर्वाचनस्य अधिकृताश्च निर्धारिताः वर्तन्ते। आयोगेन ह्य एव 77 एव जनपद न्यायाधीशाः मुख्य निर्वाचनाधिकृताः निर्धारिताः वर्तन्ते। अस्यैव पौषस्य पञ्चविंशात् दिवसात् क्रियान्वयनत्वेन प्रतिनिधि सभा सदस्य सम्बद्धस्य अधिनियमस्य अनुसारेण न्याय परिषदः परामर्शेन 88 जनाः मुख्य निर्वाचनाधिकृताः निर्वाचनाधिकृताश्च नियुक्ताः वर्तन्ते। नेपाली कांग्रेस केन्द्रीय कार्य सम्पादन समिते ह्यस्तनोपवेशे राष्ट्रिय सभाया आसन्न निर्वाचने दलस्य रणनीतेः विषये विमृष्टं वर्तते। सानेपा वर्तिनी कांग्रेस केन्द्रीय कार्यालये उपविष्टे उपवेशे प्रमुख राजनैतिक दलैः न्यूनतम सहमतिं धृत्वा अग्रे गमनस्य विषये विमर्शनं सम्भूतमस्ति। अन्तिम निर्णयस्य कृते अद्य पुनः कार्य सम्पादन समितेः उपवेश उपविशतीति नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत असूचित। नेकपा एमाले दलस्य केन्द्रीय सचिवालय उपवेश अद्यतन दिवसाय आहूतो वर्तते। नेकपा एमाले दलस्य सचिव भानुभक्त ढकाल सामयिक राजनैतिक परिस्थितेः राष्ट्रिय सभाया प्रतिनिधि सभायाश्च निर्वाचनस्य दलस्य द्वितीय केन्द्रीय समिते उपवेशस्य पूर्व कार्याणां च विषयेषु विमर्शनाय अद्य उपवेश आहूतो स्थिति असूचयत्। सचिवस्य ढकालस्य अनुसारेण उपवेश अद्य प्रात 9 वादने ललितपुरस्य च्यासलवर्तिनी दल केन्द्रीय कार्यालय निर्धारितो वर्तते। एमाले दलस्य द्वितीय केन्द्रीय समितेः उपवेश शैव पौषमासस्य 27 दिवसात् 31 दिवसं यावत् काष्ठमण्डपे उपवेक्ष्यति। पूर्व प्रधानमन्त्रिणी नेकपा एमाले दलस्य अध्यक्षे च केपी शर्मा ओली इत्यस्मिन् निर्धारित स्थान समययोः सीमा निरस्तीकृता वर्तते। गत भाद्रस्य 23-24 दिवसयोः घटनायाः अनुसन्धानाय संघटितेन आयोगेन पूर्व प्रधानमन्त्रिणी ओली इत्यस्मिन् विदेश भ्रमणे विहितं प्रतिबन्धनं स्वीकृतिं विना काष्ठमण्डपोपत्यकां न त्यक्तुं च विहिता व्यवस्था अपाकृता वर्तते। मार्ग दुर्घटनायां मृतेषु 6 जनेषु अधुनावधि 5 जना सत्यापिता वर्तन्ते। मकवानपुर जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी नायब उपरीक्षक पुष्कर बोगटी घटनायां मृतेषु जनेषु हेटौडा स्थानस्य कविता लम्साल निखिल अग्रवाल कृष्ण प्रसाद फुयाल भारतस्य अरविन्द कुमार रजनी कुमार च सन्तीति असूचयत्।